यावत् पाकमुपैति कर्म विरतिर्ज्ञानस्य सम्यग् न सा कर्मज्ञानसमुच्चयोऽपि विहितस्तावन्न काचित् क्षतिः किन्त्वत्रापि समुल्लसत्यवशतो यत्कर्म बन्धाय तन् मोक्षाय स्थितिमेकमेव परमं ज्ञानं विमोक्तं स्वतः।